स्त्री हे स्त्री, स्त्री शब्द स्त्री शब्दोपि ज्ञंत एव, स्त्री शब्द ज्ञंत एवञ्च स्त्री शब्दात् प्रथमा एकवचने सुप्रत्यये कृते स्त्री सु इति स्थिते, स्त्री इत्यस्य दीर्घञ्यन्तत्वेन ततः परस्य सुप्रत्ययस्य लोपे कृते स्त्री इति रूपं भवति. स्त्रियौ स्त्री औ इत्यत्र स्त्रियाः अस्य इयङादेशः अजादौ प्रत्यये परे. स्त्री शब्दस्य इयङादेशः भवति अजादौ प्रत्यये परे. अजादौ प्रत्यये परे स्त्री शब्दस्य इयङादेशो भवति इत्यर्थः. स्त्री औ इति खलु विद्यते, तत् स्त्री शब्दस्य औ इति अजादि प्रत्ययः परे विद्यते, अतः अत्र इयङादेशः भवति. एवञ्च इयङादेशे कृते स्त्रियौ स्त्रियः, स्त्रिय हे स्त्रि इति रूपम्. स्त्री हे स्त्री शब्दात् सुप्रत्यये हे स्त्री सु इति स्थिते, यू स्त्रियाख्यौ नदी ईदुदन्तौ नित्यस्त्रीलिङ्गौ नदी संज्ञौ स्तः, अस्य ईकारान्तत्वेन स्त्रीशब्दः नित्यस्त्रीलिङ्गशब्द एव, अतः तस्य नदी संज्ञा भवति. स्त्रीशब्दस्य नदी संज्ञायाम् अम्बार्थ नज्योर्ह्रस्वः, अम्बार्थानां नज्यन्तानां च ह्रस्वः च सम्बुद्धौ परतः. सु इति सम्बुद्धिः परे विद्यते, अतः स्त्रीशब्दस्य ह्रस्वे कृते हे स्त्रि सु इति स्थिते, एन ह्रस्वात् सम्बुद्धेः इत्यनेन सुप्रत्ययस्य लोपे कृते हे स्त्रि. स्त्रियौ स्त्रियः, स्त्रियं स्त्रीं, स्त्रियं स्त्रीम् इति भवति. स्त्री शब्दात् द्वितीयेकवचने अम् प्रत्यये कृते स्त्री अम् इति स्थिते, वांशसोः अंशसोरचि स्त्रियाः इयङ्वास्या, अम् सम्बन्धिनः शिस्सम्बन्धिनि अच् अचि परे स्त्री शब्दस्य इयङादेशः विकल्पेन भवति इत्यर्थः. अंशसोः अचि परतः स्त्री शब्दस्य इयङादेशः विकल्पेन भवति इत्यर्थः. स्त्री अम् इत्यत्र स्त्री शब्दस्य अम् सम्बन्धि अच् परे विद्यते, अतः इयङादेशः विकल्पेन भवति. इयङ् पक्षे स्त्रियम् इति रूपं भवति. इयङभावपक्षे, इयङः वैकल्पिकत्वेन तदभावपक्षे स्त्री अम् इति स्थिते, अमिपूर्वः इत्यनेन पूर्वरूपे कृते स्त्रीं स्त्रियं स्त्रीं स्त्रियौ स्त्रियः स्त्रीः. स्त्री शस् इति खलु विद्यते, शशि शकारस्य इत्संज्ञा, स्त्री अस् इति विद्यते, अत्र शस् प्रत्ययसम्बन्धि अच् परे विद्यते, अतः वांशसोः इत्यनेन इयङादेशः विकल्पेन भवति. इयङादेशपक्षे स्त्रियस् ऋतुसर्गौ स्त्रियः, इयङ् अभावपक्षे स्त्री अस् इत्यत्र प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घे स्त्रीस् इति जाते, ऋत्वविसर्गयोः स्त्रीः इति रूपं भवति. अनन्तरं स्त्रिया तृतीयेकवचने ताप्रत्यये कृते स्त्री ता इति स्थिते, तकारस्य इत्संज्ञायां लोपे च स्त्री आ इति स्थिते स्त्रियाः, अस्य यंशात् अजादौ प्रत्यये परे, आ इति अजादिः प्रत्ययः परे विद्यते, अतः स्त्रीशब्दस्य इयङादेशे कृते स्त्रिया. स्त्रीभ्यां स्त्रीभिः, स्त्रीभ्यां स्त्रीभ्यां स्त्रीभिस् ऋतुसर्गौ स्त्रीभिः, स्त्रियै. स्त्रीशब्दात् चतुर्थेकवचने ङे प्रत्यये कृते स्त्री ए इति स्थिते, स्त्री शब्द से नदी संज्ञा विद्यते, अतः स्त्री ए चित्र आन नज्जा नज्जंता परेशांगिता आरागम से स्त्री शब्द नज्जंत ततः पर नित ए तस्य आडागमो भवति आडागमे कृते स्त्री आ ए स्त्री आ ए आ ए इत्यत्र आतश्च आतोच परे वृद्धिरेकादेशः इत्यनेन वृद्धौ स्त्री ऐ स्त्रियाः अस्येंशात् अजारो प्रत्यये परे इत्यनेन इयङादेशे कृते स्त्रियै स्त्रीभ्यां स्त्रीभ्यः स्त्रियाः स्त्री अस् आण्ज्याः इत्यनेन आडागमः स्त्री आ अस् आतश्च वृद्धिः स्त्री आस् स्त्रियाः अस्यैयंशाद् अजादौ प्रत्यये परे इत्यनेन इयङादेशे कृते स्त्रियास् ऋतुसर्गौ स्त्रियाः स्त्रियोः स्त्रीणां स्त्री आम् ह्रस्वनज्जापोन्नट् स्त्री शब्दस्य नज्जन्तेन ततः परश्यामः नुडागमे कृते स्त्रीणाम् इति जाते णत्वे कृते स्त्रीणां स्त्रियां स्त्रीणि नेरां नज्यां नदीभ्यः स्त्री शब्दस्य नज्जन्तत्वेन ततः परस्यङेः आस्ते स्त्री आम् इति स्थिते स्त्री आम् इति स्थिते स्त्रियाः इत्यनेन इयङादेशे कृते स्त्रियां स्त्रियोः स्त्रीषु
स्त्रियमतिक्रान्तो अति
स्त्रियम् अतिक्रान्तः स्त्रियम् अतिक्रान्तः इति शब्दे अतिस्त्रि इति भवति तत्र ह्रस्वो भवति समासे गोस्त्रियोरुपसर्जनस्य इति सूत्रं विद्यते तेन स्त्रीशब्दस्य ईकारस्य ह्रस्वे कृते अतिस्त्रिशब्दो भवति अतिस्त्रि इत्यतः सुप्रत्यये कृते अतिस्त्रि सु उत्सर्गो अतिस्त्रिः गुणनाभावोत्वनुद्भिः गुणनाभावौत्वनुद्भिः परत्वात् पुंसि बाध्यते क्लीबे नुमा च स्त्रीशब्दस्य नियङ्गित्यवधार्यता अवधारणं कर्तव्यम् स्त्रीशब्दस्य स्त्रिया अजादौ विभक्तौ परतः विधीयमानः इयङादेशः पुंसि पुंलिङ्गे गुणनाभाव औत्व नुड्भिः परत्वाद् बाध्य गुणः जसि च इत्यनेन विधीयमानः गुणः सम्बुद्धौ विधीयते ह्रस्वस्य गुणः इति नाभावः आङ्गो नास्त्रियाम् इत्यनेन विधीयमानः न इत्यादेशः औत्वम् अच्छघेः इत्यनेन विधीयमानम् औत्वम् नुट् ह्रस्वनज्जापो नुट् इत्यनेन विधीयमानः नुट् इयङादेशं बाधित्वा इयङादेशे प्राप्ते तं बाधित्वा पुंसि गुणः नाभावः औत्वं नुडागमश्च भवन्ति पुंसि नपुंसकलिङ्गे तु इयङादेशं परत्वात् बाधित्वा किं भवति नुमागमो भवति इकोचि विभक्तौ इति सूत्रेण इगन्तस्य क्लीबस्य नुम् अचि विभक्तौ इत्यनेन अजादौ विभक्तौ परतः इगन्तस्य क्लीबस्य नुमागमः भवति इत्युक्तम् तत्र नुमागमस्य प्राप्तिः विद्यते इयङादेशस्य च प्राप्तिः विद्यते यत्र तत्र इयङादेशं परत्वात् बाधित्वा क्रमेण नुमागम एव भवति नपुंसकलिङ्गे पुंलिङ्गे इयङादेशे प्राप्ते तं बाधित्वा गुणनाभावौत्वनुटः भवन्ति इति सङ्ग्रहेण अयं श्लोकः उक्तः तेन विभक्ति अतिस्त्रीशब्दस्य प्रक्रिया ज्ञायते यथा अतिस्त्री ही अतिस्त्री इत्युक्तम् खलु। अनन्तरं जैसे किं भवति अतिस्त्रयः इति रूपं भवति, अतिस्त्रियः इति न, स्त्री शब्दे प्रथमा बहुवचने स्त्रियः इति रूपं जातम्, अतिस्त्री अस् इति स्थिते जैसी च ह्रस्वान्तस्य अङ्गस्य गुणः स्यात् जैसी, अतिस्त्री शब्दः ह्रस्वान्तः एवञ्च अतिस्त्री इति ह्रस्वान्तमङ्गं तस्य जसि परे गुणः प्राप्नोति। एवम् अत्र अतिस्त्री इत्यत्र स्त्रीशब्दः विद्यते, तस्य जस् परे विद्यते, अजादिः विभक्तिः परे विद्यते, अतः इयङादेशस्य च प्राप्तिर्विद्यते। को वा भवति इत्युक्ते इयङादेशं बाधित्वा तत्र परत्वात् गुणः भवति, एवञ्च गुणे कृते अतिस्त्रे अस् इति स्थिते एचोयवायावः इत्यनेन आयादेशे अतिस्त्रयस् इति जाते रुद्रविसर्गयोः अतिस्त्रयः, अतिस्त्रिः अतिस्त्री अतिस्त्रयः, हे अतिस्त्रे, हे अतिस्त्रि शब्दात् सम्बोधन प्रथमा एकवचने सुप्रत्यये हे अतिस्त्रि इति स्थिते ह्रस्वस्य गुणः, सम्बुद्धौ परतः ह्रस्वान्तस्य अङ्गस्य गुणो भवति इत्युक्तम्, अत्र स इति सम्बुद्धिः परे विद्यते, अतः अतिस्त्रिशब्दस्य गुणः भवति। गुणे कृते हे अतिस्त्रे स इति स्थिते एङ्ह्रस्वात् सम्बुद्धेः इत्यनेन सुलोपे कृते हे अतिस्त्रे, हे अतिस्त्रियौ, हे अतिस्त्रयः, एवम् अतिस्त्रियम् अतिस्त्रिम्, अतिस्त्रियम् अतिस्त्रिम्, अतिस्त्री अतिस्त्रि अम् इति स्थिते वांशसोः, अमि शशि च स्त्रियाः इयङ् वा स्यात्, अमि परे शशि च परे स्त्रीशब्दस्य इयङादेशः विकल्पेन भवति इत्युक्तम्, इयङादेशपक्षे अतिस्त्रियम् इति रूपम्, इयङ् अभावपक्षे अतिस्त्री अम् इत्यत्र अमि पूर्वः इत्यनेन पूर्वरूपे कृते अतिस्त्रिम्, अतिस्त्रियम् अतिस्त्रिम्, अतिस्त्रियौ, अतिस्त्रियः, अतिस्त्रीन्, अतिस्त्रीशस् शकारस्य इत्संज्ञ, अतिस्त्री अस् इयङादेशः विकल्पेन भवति वांशसोः इति, इयङ् पक्षे अतिस्त्रियः, इयङभावपक्षे अतिस्त्री अस् प्रथमः पूर्वसवर्णः अतिस्त्रीस्, तस्माच्च सोनः पुंसि इत्यनेन मत्वे अतिस्त्रीन् इति रूपं भवति। अतिस्त्रीशब्दः पुल्लिङ्गः, स्त्रियम् अतिक्रान्तः इति खलु उक्तम्, अतिस्त्रिय अतिस्त्रिणा इति रूपं भवति, अतिस्त्रिता चकारस्य इत्संज्ञा, अतिस्त्री आ, अतिस्त्रिशब्दः ह्रस्व इकारान्तः, अतिस्त्रिशब्दः ह्रस्व इकारान्तः, अतः तस्य घिसंज्ञा भवति, शेषोघ्यसखि ह्रस्वौ यौ इति तु तदन्तं सखिवर्ज्यं घिसंज्ञं स्यात्, अतिस्त्रीशब्दः ह्रस्व इकारान्तशब्दः सखिशब्दात् भिन्न एव, अतः तस्य घिसंज्ञा भवति, एवञ्च घिसंज्ञायाम् अतिस्त्रि आ इत्यत्र आङो नास्त्रियां, घेः परस्य आङः न स्यात् अस्त्रियां, घिसंज्ञकात् परस्य आङः न इत्यादेशो भवति, एवञ्च अतिस्त्रि इत्यस्य घिसंज्ञकत्वेन ततः परस्य आङः न इत्यादेशो भवति, इयङादेशं बाधित्वा, बाधित्वा न इत्यादेशे अतिस्त्रि नत्वे कृते अतिस्त्रिणा, अतिस्त्रिभ्याम् अतिस्त्रिभिः, अतिस्त्रये, अतिस्त्रिङे नकारस्य इत्संज्ञायां लोपे च अतिस्त्रि ए इति स्थिते घेर्णिति, घिसंज्ञस्य नितिसुपि गुणः, घिसंज्ञकस्य नितिसुपि परे गुणो भवति इत्युक्तम्, अतिस्त्रीशब्दः घिसंज्ञकः, तस्या ए इतिंगित सुप परे विच्यते अतः गुणः गुणे कृते अतिस्त्रे ए अतिस्त्रे ए एचोयवायावः अतिस्त्रये अतिस्त्रिभ्याम अतिस्त्रिभ्यः अतिस्त्रेः अतिस्त्रिनस् ए गुणः अस् खलु विद्यते अतिस्त्री इति घिसंज्ञकः तस्य अस् इति ङित् सुप् परे विद्यते अतः गुणः अतिस्त्रे अस् अतिस्त्रे अस् नसिंहसोश्च एङो नसिंहसोरतः पूर्वरूपमेकादेशः स्यात् अत्र एकारस्य नस् प्रत्ययसम्बन्धी अच् परे विद्यते अतः पूर्वरूपं भवति पूर्वरूपे कृते अतिस्त्रेस् ऋतुशब्दो अतिस्त्रेः अतिस्त्रियोः अतिस्त्रीणाम् अतिस्त्री आम् अन्तः अन्ते उच्युक्तं खलु गुणनाभावौ च नुड्भिः नाम तत्र इयङादेशं बाधित्वा स्त्रीशब्दस्य मज्जन्तत्वेन ततः परस्य आमः मुडागमो भवति अथवा ह्रस्वान्तमेव अङ्गम् अतिस्त्री इति ततः परस्य आमः नुडागमो भवति नुडागमे कृते अतिस्त्री नाम् अतिस्त्री नाम् नामि नामि परे अजन्ताङ्गस्य दीर्घः स्यात् दीर्घे कृते अतिस्त्रीणाम् णत्वे कृते अतिस्त्रीणाम् अतिस्त्रौ अतिस्त्रौ इति अतिस्त्रीणि इत्यत्र अच्चघेः इदुभ्यामुत्तरस्य ङेरौ घेरश्च ह्रस्व इकार उकाराभ्यां परस्य ङेः औकारादेशौ भवति निसंज्ञकस्य अकारस्य अन्तादेशेन भवति अतिस्त्री इ इत्यत्र अतिस्त्री इति निसंज्ञकः तत् इकारः विद्यते ततः परस्य ङेः औकारादेशो भवति अतिस्त्री औ अतिस्त्री औ इकारस्य अकारादेशः अकारादेशे अतिस्त्रा औ वृद्धिरेति अतिस्त्रौ
अतिस्त्रियोः अतिस्त्रिषु
नपुंसके अतिस्त्रिसु इति खलु विद्यते अतिस्त्रिसु इत्यत्र स्वमोर्नपुंसकादिच्यनेन सुप्रत्ययस्य मुखि अतिस्त्रि अतिस्त्रि अतिस्त्रिणी अतिस्त्रीणि अतिस्त्रिणी अतिस्त्रीणि अतिस्त्रिशब्दात् औ प्रत्यये अतिस्त्रि औ इति स्थिते नपुंसकाच्च क्लीबादौङ्गः शीष्यात् अतिस्त्रि इति नपुंसकलिङ्गशब्दः तस्मात् परस्य औङ्गः शी इत्यादेशो भवति शी इत्यादेशे अतिस्त्रि इति स्थिते इकोचि विभक्तौ इगन्तस्य क्लीबस्य नुम् अचिविभक्तौ इति अजादिः विभक्तिः परे विद्यते अतः अतिस्त्रिशब्दस्य नुमागमो भवति नुमि अतिस्त्रिन् इ अतिस्त्रिन् इ णत्वे कृते अतिस्त्रिणी अतिस्त्रीणि अतिस्त्रीणि अतिस्त्रिशब्दात् जस् प्रत्ययः अतिस्त्रि अस् अतिस्त्रि अस् जस्यशोश्चिः क्लीबातनयोः शिः स्यात्
अतिस्त्रि इति स्थिते इयङादेशं बाधित्वा तत्र इकोचि विभक्तौ इच्छनेन नुमागमे अतिस्त्रिन् इति जाते सर्वनामस्थाने च सम्बुद्धौ
जनेन दीर्घः दीर्घे कृते अतिस्त्रीन् इ नत्वे कृते अतिस्त्रीणि तत्र अतिस्त्रिशब्दः उक्तः लाघवार्थं तत्र एकः श्लोकः उक्तः स्त्रीशब्दस्य इयङ्गपुंसि स्त्रीशब्दस्य नाम अतिस्त्रिशब्दस्य पुल्लिङ्गे विधीयमानः इयङ् इत्यादेशः ओसि औकारे च नित्यं भवति ओस् प्रत्यये परे नाम षष्ठी सप्तमी द्विवचनयोः औकारे प्रथमा द्वितीया द्विवचनयो परतः नित्यं इयङादेशः भवति अतिस्त्रियौ अतिस्त्रियौ अतिस्त्रियोः अतिस्त्रियोः इत्युक्तम् तत्र गुणनाभावादीनां प्राप्तिं नास्ति अतः ओसि परतः नाम षष्ठी सप्तमी द्विवचनयोः परतः औकारे च नाम प्रथमा द्वितीया द्विवचनयोश्च परतः इयं नित्यं भवति अं शशोस्तु विभाषया अमि परे शस् परे च इयङादेशः विकल्पेन भवति वांशसोः इति सूत्रमुक्तं खलु अमि शशि च स्त्रियाः इयं वा स्यात् इति खलु उक्तम् अत एव अतिस्त्रियम् अतिस्त्रीम् अतिस्त्रियः अतिस्त्रीः इत्युक्तम् अत्रैव इयङादेशः नान्यत्र इयङादेशो भवति अन्यत्र विभक्तिषु परतः इयङादेशः न भवति जसि परे जसि च इति गुणः अतिस्त्रयः इति रूपं जातम् प्रथमद्वितीया द्विवचने इयङादेशः विकल्पेन भवति इत्युक्तम् तृतीयैकवचने तृतीयादिषु अजादिषु विभक्तिषु परतः घेर्णिति इति गुणः भवति इत्युक्तम् सप्तम्येकवचने तत्र अच्यघेः इत्यनेन औकारादेशः एवम् अकारादेशश्च भवति इत्युक्तम् हलादिषु च प्राप्तिरेव नास्ति इयङादेशस्य इयङादेशः अजादौ विभक्तौ खलु भवति हलादिषु विभक्तिषु इयङादेशस्य प्राप्तिरेव नास्ति अतिस्त्रिभ्याम् अतिस्त्रिभिः अतिस्त्रिभ्याम् अतिस्त्रिभ्यः इत्यादि अजादिष्वपि प्रथमा बहुवचने अजादिषु तृतीयादिषु च परतः घिसंज्ञायाः विद्यमानत्वेन तत्र किं भवति नाभाव गुणादिगुण औक्तानां प्राप्तिर्विद्यते अतः न तत्र इयम् षष्ठी बहुवचने नुडागमो भवति तत्रापि इयं न भवति केवलं येषु विभक्तिषु च परत एव इयङादेशः इति सङ्ग्रहेण अस्मत् बोधार्थं श्लोकः उक्तः अनन्तरम् अधुना किं पठ्यते नपुंसकलिङ्गे पठ्यते एवञ्च अतिस्त्रि अतिस्त्रिणी अतिस्त्रीणि इत्युक्तम् अतिस्त्रिशब्दात् औ प्रत्यये अतिस्त्री औ इत्यत्र नपुंसकाच्च क्लीबादौङ्गः शीष्यादिच्यनेन शी इत्यादेशे अतिस्त्री इ इति जाते इयङादेशं बाधित्वा नुमागमे अतिस्त्रिन् इ इति जाते णत्वे अतिस्त्रिणी इति रूपम् प्रथमा बहुवचने अतिस्त्री जस् इति स्थिते जस्यशो शिः इत्यनेन शि इत्यादेशे अतिस्त्री इति जाते नुमागमे कृते नपुंसकस्य झलचः इत्येव अस्तु इकोऽपि भक्तौ इत्यनेन वा नुमागमे कृते अतिस्त्रिन् इ अतिस्त्रिन् इति जाते सर्वनामस्थाने च सम्बुद्धौ इच्छनेन दीर्घे कृते अतिस्त्रीन् इति जाते नत्वे कृते अतिस्त्रीणि इति रूपम् उक्तम् द्विवचने अतिस्त्रीणि इति बहुवचने अतिस्त्रीणि इति अर्थात् द्विवचने न दीर्घः बहुवचने दीर्घः कोऽयं भेदः कुतो अयं भेदः अतिस्त्रीणि इत्यत्र दीर्घः न जातः अतिस्त्रीणि इत्यत्र दीर्घो जातः कोऽयं पक्षपातः अत्र कथं विद्यते इति न प्रश्नः तत्रापि प्रश्नः क्रियते गुणिनी गुणिनी इति गुणिनि इच्छत दीर्घः न जातः, गुणिनि इच्छत दीर्घो जातः, कुतः अयं पक्षपातः? सर्वनामस्थाने च सम्बुद्धौ इच्छनेन खलु दीर्घो विधीयते, सर्वनामस्थाने च सम्बुद्धौ इच्छनेन दीर्घः सर्वनामस्थाने परतः भवति. नपुंसकलिङ्गे सर्वनामस्थानसंज्ञा नास्ति. सुट् अनपुंसकस्य स्वादि पञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युः अक्लीबस्य इति. एवञ्च सर्वनामस्थानं परे नास्ति विवचने, अतः न दीर्घः. बहुवचने सर्वनामस्थानं कथं भवति इति चेत्, शी सर्वनामस्थानम् इति सूत्रं विद्यते. शी इत्यस्य सर्वनामस्थानसंज्ञा विहिता नपुंसकलिङ्गे. एवञ्च जस्प्रत्ययस्थानिके शिप्रत्यये परे तस्य सर्वनामस्थानत्वेन तस्मिन् परतः उपधा दीर्घो भवति. एवञ्च उपधा दीर्घे किं भवति? अतिस्त्रीणि एवमेव गुणिगुणिनि गुणिनि वारि वारिणि वारिणि इत्यादयः. अनन्तरम् अतिस्त्रीणा अतिस्त्री
आङ्गो नास्त्र्याम् इति सूत्रेण ताप्रत्ययस्य स्थाने न इत्यादेशे णत्वे च अतिस्त्रिणा इति रूपं भवति.
अतिस्त्रिणा अतिस्त्रिभ्याम् अतिस्त्रिभिः ప్రభుతౌ అజాదిషు విభక్తిషు పరతః నే ప్రభుతిషు అజాదౌ విభక్తిషు పరతః పుంవద్భావః వికల్పేన భవతి చూతి అగ్రే వక్ష్యతి. తృతీయాదిషు భాషిత పుంస్కం పుంవత్ కాలవశ్య ఇతి సూత్రం ఆగమిష్యతి నపుంసక ప్రకరణే. అర్థాత్ అజాదిషు తృతీయాదిషు విభక్తిషు పరతః క్లీబశ్చ శబ్దస్య పుంవద్భావః భవతి. క్వచిత్ సందర్భే క్లీబోపి పుంవాన్ భవతి. ఏవం కిం భవతి? పుంవద్భావః విహితః. పుంవద్భావపక్షే నుమ్ న భవతి. పుంవద్భావ అభావపక్షే నుమ్ భవతి. ఏవంచ యదా పుంవద్భావః క్రియతే తదా అతిస్త్రీణ్యే ఇత్యత్ర. నకారస్య సంజ్ఞా అతిస్త్రీ ఏ. అస్య పుంవత్వేన నపుంసకత్వం నాస్తి, అతః నన్నుమ్. అతః ఘిసంజ్ఞా విద్యతే ఇతి కృత్వా ఘేర్మితి ఇత్యనేన గుణే కృతే అతిస్త్రే ఏ అయాదేశే అతిస్త్రయే. పుంవద్భావ అభావపక్షే క్లీబత్వేన ఇకోచి విభక్తౌ ఇచ్చనేన నుమాగమే కృతే అతిస్త్రిణే ఇది రూపం భవతి. అతిస్త్రయే అతిస్త్రిణే అతిస్త్రిభ్యాం అతిస్త్రిభ్యః.
అతిస్త్రేహే అతిస్త్రిణః. అతిస్త్రీ శబ్దాత్ షష్ఠ్యేకవచనే అతిస్త్రీ అస్ ఇతి స్థితే. తత్ర పువద్భావపక్షే పువద్భావపక్షే అతిస్త్రీ అస్ ఇచ్చత్ర ఘేర్ణితి చనేన గుణే గసింగసోశ్చ ఇది పూర్వరూపే చ అతిస్త్రేస్ ఇది జాతే ఋత్వవిసర్గయోః అతిస్త్రేహే ఇది. పుంవద్భావ అభావపక్షే నుమాగమే అతిస్త్రిణః ఇతి రూపం భవతి. ఏవం అతిస్త్రియోః అతిస్త్రిణోః ఇత్యాది. స్త్రియాంతు ప్రాయేణ పుంవత్ నమ స్త్రియం అతిక్రాంతా ఇతి స్త్రీ విగ్రహే అతిస్త్రి శబ్దః పుంవదేవ భవతి. నమ అతిస్త్రీ అతిస్త్రీ అతిస్త్రయః. శశి తు అతిస్త్రీహి ఇతి రూపం భవతి. నమ అతిస్త్రీ శస్ ఇచ్చత్ర తత్ర పూర్వసవర్ణ దీర్ఘే అతిస్త్రీస్ ఇతి జాతే స్త్రీత్వాత్ నత్వా భావః. అశ స్త్రీత్వేన తస్మాచ్ఛసో నపుంసి ఇచ్చనేన నత్వం న భవతి. తథా చ అతిస్త్రీస్ ఇతి జాతే ఋత్వ విసర్గయోః అతిస్త్రీహి. అతిస్త్రిణా అతిస్త్రియా తృతీయ ఏకవచనే अतिस्त्री अ इति स्थिते अनेन स्त्रियाः इति सूत्रेण इयङादेशे कृते अतिस्त्रिया अतिस्त्रिभ्याम् अतिस्त्रिभिः चतुर्थ्येकवचने चतुर्थ्येकवचने अतिस्त्री ए इति स्थिते अत्र ङिति ह्रस्वश्च इति सूत्रेण अस्य ह्रस्वान्तत्वेन तत्र नदीसंज्ञा विकल्पेन भवति तत्र अस्त्री इति पर्युदासस्तु न भवति नाम नेयङ्वङ् स्थानावस्त्री इति सूत्रात् ङितिह्रस्वश्च इति सूत्रे नेयङ्वङ् स्थानावस्त्री इति सूत्रात् इयङ्वङ् स्थानावस्त्री इत्यनुवर्तते अत एव तत्रोक्तम् इयङ्वङ् स्थानौ स्त्रीशब्दभिन्नौ निच्चस्त्रीलिङ्गौ ईदूतौ नदीसंज्ञौ वास्तः इत्युक्तम् पश्च स्त्रीशब्दत्वेन कथं नदीसंज्ञा इति चेत् अस्त्री इति पर्युदासस्य इयङ्वङ् स्थानावित्यस्यैव पर्युदासः नाम यौ इयङ्वङ् स्थानौ ईदूतौ तत्रैव अस्त्री इत्यस्य अन्वयः ईकार ऊकारौ अपि इयङ्वङ् स्थानौ स्याताम् एवं स्त्रीशब्दभिन्नौ स्याताम् नाम दीर्घस्यैवायं निषेधः दीर्घ ईकार ऊकारयोः एव अयम् इयङ्वङ् स्थानौ अस्त्री इत्यन्वयेन तत्रैव निषेधः स्त्रीशब्दभिन्नौ इति ह्रस्वस्थले तु नायं निषेधः तत्र ह्रस्वश्च इति वाक्यान्तरमुक्तम् तत्र इयङ्वङ् स्थानौ अस्त्रि इति न सम्बध्यते केवलं ह्रस्वौ च इवर्णोवर्णौ नदीसंज्ञौ वास्तः इत्यर्थः अतिस्त्रि इत्यत्र ह्रस्व इवर्णः तस्य ङिति परे नदीसंज्ञा विकल्पेन भवति नदीसंज्ञापक्षे अतिस्त्रि ए इति स्थिते आण्णज्यः इत्यनेन आडागमे आटश्च इत्यनेन वृद्धौ अतिस्त्री ऐ इति जाते इयङादेशे अतिस्त्रियै इति तत्र नदीत्व अभावपक्षे घिसंज्ञायाः विद्यमानत्वेन अतिस्त्री ए इति स्थिते घेर्ङिति इति सूत्रेण गुणे अयादेशे च अतिस्त्रये इत्यभिरूपं भवति एवं षष्ठ्येकवचने अतिस्त्रि अस् इति स्थिते नदीत्वपक्षे आडागमे अतिस्त्रि आ अस् इति स्थिते आटश्चाइचनेन वृद्धौ अतिस्त्रि आस् इति जाते तत्र इयङादेशे अतिस्त्रियास् इति रूपं भवति ऋत्विसर्गयोः अतिस्त्रियाः तदभावपक्षे अतिस्त्रेः अतिस्त्री अस् इत्यत्र घेर्ङिति इत्यनेन गुणे अतिस्त्रे अस् इति जाते नसिंहसोश्च इत्यनेन पूर्वरूपे अतिस्त्रेस् ऋत्विसर्गौ अतिस्त्रेः इति अतिस्त्रियोः षष्ठी बहुवचने अतिस्त्री आम् इति स्थिते ह्रस्वनज्जापो नुट् इति सूत्रेण नदीत्वपक्षे नज्जन्तत्वात् ततः परस्य आमः नुटि अतिस्त्रि नाम इति जाते नामी इत्यनेन दीर्घे अतिस्त्रीनाम् नत्वे कृते अतिस्त्रीणाम् इति रूपं भवति नदीत्वाभावपक्षे अतिस्त्रि इत्यस्य ह्रस्वान्तत्वेन ततः परस्य आमः नुटि नामी इत्यनेन दीर्घे णत्वे च अतिस्त्रीणाम् इत्येव रूपं भवति नदीत्वपक्षे नदीत्वाभावपक्षेऽपि अतिस्त्रीणाम् इत्येव रूपम् यतोहि नदीत्वपक्षे नज्जन्तत्वात् नुट् नदीत्वाभावपक्षे अतिस्त्रिशब्दस्य ह्रस्वान्तत्वात् ततः परश्यामः नुटि नामी इत्यनेन दीर्घे णत्वे च अतिस्त्रीणाम् इत्येव रूपम् अतिस्त्रियाम् अतिस्त्रौ अतिस्त्रीङि नदीत्वपक्षे ङेरां नज्जां नीभ्या इत्यनेन आमादेशे कृते अतिस्त्रि आम् अत्र ह्रस्वनज्जापो नुटि इति सूत्रेण नुटिप्राप्ते तं बाधित्वा परत्वात् आडागमे कृते आटश्चा इच्छनेन वृद्धौ अतिस्त्री आम् इति स्थिते इयङादेशे इयङादेशे अतिस्त्रियाम् तदभावपक्षे अतिस्त्री नि इत्यत्र अच्यघेः इच्छनेन औत्वे इकारस्य अकारादेशे च अतिस्त्र औ वृद्धिरेचि इति जाते अतिस्त्रौ इत्यादि श्रीः श्रीसेवायानम् इति धातोः क्विप्रत्यये प्रकृतेः दीर्घे च श्री इति रूपं भवति तस्मात् प्रथमे एकवचने सुप्रत्यये श्री सु इति स्थिते अस्य अन्यन्तत्वात् हलिङ्याभ्या इत्यादिना सुलोपो न भवति तथा च श्रीस् इत्यत्र ऋत्वविसर्गयोः श्रीः इति रूपं भवति श्रियौ श्री औ इति स्थिते अचिष्णुधातु भ्रुवां युवोरियङ्गौ इत्यनेन इयङादेशे श्रियौ श्रियः हे श्रीः हे श्रीसु इति स्थिते अत्र यूस्त्र्याख्यौ नदी इत्यनेन नदीसंज्ञायां प्राप्तायाम् उच्यते नेयङ्वङ् स्थानावस्त्री इयङ्वङोः स्थितिः ययोस्तावीदूतौ नदीसंज्ञौ न स्तः न तु स्त्री इति वृत्तिः